नमस्सर्वेभ्यः। अद्य तिङन्तप्रक्रियायां द्वात्रिंशः पाठः, मार्च् मासस्य ऊनत्रिंशः दिनाङ्कः। हीनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। भादिगणस्य प्रक्रिया अधीता। भादिगणस्य ये अधिकसहस्रं धातवः तेषां सर्वेषां सार्वधातुकलकारेषु लट् लङ् लोट् विधिलिङ् लकारेषु रूपाणि सिद्धानि। ऐ होप् युर् आल् प्रति फेमिलियर् वित् द प्रोसेस् द तिङन्तप्रक्रिया द स्टेप्स् so far. We are now moving into the next gana, which is not the second gana. We are going into the tenth gana, which is the churadi gana. Okay. So as I've told earlier, in the method which we are following by the Pushpa Dikshit, we are not going it in the order of the dhatu patha for various reasons, mainly for the ease of prakriya. So adau यत्र विकरणयोजनेन अङ्गानि अदन्तानि सम्पद्यन्ते तेषां गणानां प्रक्रिया अधीयते। सो द फस्ट् गणास् विच् वि स्टडी आर् आल् दोस् विच् आफ्टर् एडिङ्ग् द विकरण विल् गिव् यू एन् अदन्त ह्रस्वाकारान्त अङ्ग। लैक् वि सा इन् फादि आल् आफ् देम् गेट् शप्, सो यू हाव् एन् अदन्त अङ्ग। सो देर् आर् अदर् गणास्, यू हाव् द दिवादिगण वेर् यू एड् श्यन् शन् इत्यत्र य इति शिष्यते, तदपि अदन्तम्। तुदादिगणे श विकरणः, तस्य योजनेनापि अदन्तमङ्गम्। चुरादिगणे अपि अदन्तमङ्गमेव सम्पद्यते। अतः आदौ एतेषां गणानां धातवः अधीयन्ते, ततः अन्येषां गणानां धातवः। किमर्थमेवं क्रियते? यथा अस्माभिः प्रत्ययनिर्माणे अधीतं, प्रत्ययस्य निर्माणम् अङ्गमाश्रित्य भवति। There are many sutras in the derivation of prakriyas which depend on the anga. So as we saw, atongitaha will depend on the adanta rangat parasya, ato yeyaha depends on atanta rangat parasya. So if you change the ending of the anga, the pratyaya will change slightly. So we'll first cover all the ganas which have the same pratyaya. Okay, so in the churadi gana also the pratyayas do not change. Whatever we studied for Bhadigana, the same pratyayas. And obviously, if you have the same Anga and the same pratyaya, the Angakarya and the Sandhikarya will also remain the same. Okay. So we just have to study till the Vikarana Yojana. Okay. If you remember the steps, everything after that, Pratyaya Nirmanam, Pratyaya Pare Karyani, Sandhi Karyani, Tripadi Karyani, all of them remain the same. You just have to study the part before it. So, Churadiganaha, Dhatu Pathe, Dashamaha, Antimashcha Ganaha, Churasteye Ityarabhya, Tuttha Avarane Ityetat Paryantam, Siddhanta Kaumudyam, नवाधिक चतुःशतं धातवः सन्ति पाठान्तरैः सह। दिस् इस् नाट् 1491, वि शुड् हव् बीन् ऐ थिङ्क् ऐ डोण्ट् नो वै दिस् इट्स् 491 ऐ गेस्। सो अयं धातुपाठः चुरादिगणस्य। अत्र चुरस्तेये इति धातुपाठे प्रथमः धातुः, सो चितिस्मृत्यां यत्वि सङ्कोचने इत्यादिरीत्या। सो इफ् यु गो एण्ड् एण्ड् इट् इस् ऐ थिङ्क् सो इन्क्लूडिङ्ग् द पाठान्तर सेट् द सिद्धान्तकौमुदी हेज़् ओन्ली 409, but including the different pathantaras you have 505 dhatus. So it's a typing error in the slide, I'll change it. So that's the number of dhatus which we have in the churadi gana. It is the second largest gana after the bhadi gana. Churadi gane चुरादिगणस्य अयमपि विशेषः यत् इतरेषु गणेषु ये धातवः ते पुनः चुरादिगणे बहुधा दृश्यन्ते. देर् आर् मेनी धातुस् विच् यु फैण्ड् अस् पार्ट् आफ् अदर् गणस् विच् आर् आल्सो रिपीटेड् इन् द चुरादिगण सो दट् दे गेट् द स्वार्थे निच् अण्ड् दे हाव् फार्म्स् अण्ड् मेनी टैम्स् वी फैण्ड् दट् द चुरादिगण फार्म्स् आर् मच् मोर् ईजियर् टु यूस् देन् द अदर् गणस्. So you have Mrujush Shuddhau in the third gana. Tasya rupam tu mamarshti ityadi bhavati. Mamarjataha mamarjati. Klishtameva rupam. Kintu punaha churadi gane marjayati marjayataha marjayanti isulabhataya. Tadeva sarvaihi upayujyate. Evam bahavaha dhatavaha santi. So nich pratyaha. So as soon as you come to churadi, the first thing we encounter is the pratyaya which is called nich. Churadiganasya sarvebhyaha dhatubhyaha nich iti pratyaya bhavati. Nich pratyaya trividhaha bhavitum arhati. Svarthe nich pratyaya. So there are three kinds in nich. One is the nich which is in svarthe. अर्थात् धातोः यः अर्थः उक्तः तस्मिन्नेव अर्थे णिच् प्रत्ययः भवति. णिच् प्रत्ययस्य पृथक् अर्थः नास्ति. यथा चुरस्तेये इति उच्यते. चुर इस् टु स्टील्. सो चोरि इति णिजन्तः यः धातुः तस्यापि स एव अर्थः, पृथगर्थः नास्ति. गणसङ्ख्याने इति धातुः. गण इस् टु कौण्ट्. गणि इति निजन्तस्यापि धातोः स एव अर्थः. अयमेव स्वार्थे निच्. अर्थात् धातोः यः अर्थः स एव अर्थः निजन्तस्यापि भवति. निच् प्रत्ययस्य पृथक् अर्थः न भवति. अयं स्वार्थिकः निच् प्रत्ययः. प्रेरणार्थे निच् प्रत्ययः. सर्वेभ्यः धातुभ्यः अयं निच् प्रत्ययः भवति. प्रेरणार्थे पठति पठव्यक्तायां वाचि किमपि उच्चैः पठति इत्यर्थः. पाठयति पठितुं प्रेरयति. टु मेक् आर् टु कास् वन् टु रीड्. रीड् टु कास् टु रीड्. गच्छति गमयति. गच्छति इस् टु गो. गमयति इस् टु मेक् वन् गो टु सेण्ड्. सो एवं प्रेरणार्थे यः णिच् प्रत्ययः. अत्र णिचः पृथक् अर्थः अस्ति. हियर् देर् आर् टु धातुस्. देर् इस् पठ् and there is pathi joining the nich. So they are not the same, right? So pathi has a different meaning and the nijanta dhatu carries a different meaning because nich adds to the meaning. It is not in the same meaning. Nichaha prithag arthaha vidyate. Shuddhaha dhatuhu api bhavati. Tasyapi rupani bhavanti. Nijantasyapi dhatuhu rupani bhavanti. So there are both cases. अयं प्रेरणार्थे णिच्. अयं तु सर्वेभ्यः धातुभ्यः भवति. सो आल् धातुस् आफ् आल् गणस् गेट् दिस् प्रेरणार्थे णिच्. स्वार्थे णिच् इस् कन्फैन्ड् टु धातुस् आफ् द चुरादिगण. तृतीयः अपि णिच् प्रत्ययः अस्ति. नामपदेभ्यः णिच् विधीयते. सो इवन् इन् द नाम धातुस् देर् आर् सर्टन् प्रातिपदिकास् विच् गेट् णिच् प्रत्यय. यथा सत्यम् इत्यस्ति. सत्यं वदति अथवा सत्यं करोति इत्यर्थे सत्यापयति इति रूपं भवति निजन्तः. एवं व्रतः इत्यस्ति. व्रतं करोति इत्यर्थे व्रतयति इति निजन्तं भवति. सो देर् आर् सर्टन् स्पेसिफिक् प्रातिपदिकास् विच् आर् गिवन् निच् अण्ड् दिस् निच् एक्चुलि इस् आल्सो गिवन् टु आल् प्रातिपदिकास् बै सर्वप्रातिपदिकेभ्यः बहुलमिष्ठवच्च. Okay, so this is what we call a namadhatu, a dhatu which is derived from pratipadikas. Okay. So namapadebhyaha api nich pratyayaha bhavati. So there are antargana sutras in the churadigana, tat karoti tadachashte, etc. So all pratipadikas can be converted to dhatus by adding nich. Okay. So churadiganasya dhatubhyaha swarthe nich bhavati. सर्वेभ्यः धातुभ्यः इन्क्लूडिङ्ग् दोस् आफ् द चुरादि. ऐ मीन् चोरयति इस् बोत्. स्वयं चोरयति, अन्यं चोरयितुं प्रेरयति. उभयथापि चोरयति इत्येव रूपम्. बट् आल् धातुस् फ्रम् द फस्ट् फ्रम् भूसत्तायां टिल् द एण्ड् आफ् द Churadigana, all of them get Preranarthe Nit. Sarvebhyaha Pratipadikebhyaha Nit Bhavati. Okay. So there are three kinds of Nit. So there is a question here. Churadigane, are the Swartha and Preranartha forms identical or is there a double Nit? They are mostly identical. Okay. So you have the niche and then the niches, one of the niches is deleted by Neraniti. That's a common, when it is followed by Anidadav Pratyaya, the niche is deleted. So one niche, the first niche is deleted, the second niche is heard. But the forms will be the same. Okay. So I am niche pratyaha. Katham vidhiyate adav. Yada churadiganasya prakriya adhiyate, tada swarthe nich ityasya iva adhyayanam bhavati. Okay, we are studying only the swarthe nich here. So those will come later. The preranarthe nich or the namapadebhyaha nich will come in the sanadhyanta prakriya. Sanadhyanta yada adhiyante, tada punaha nich adhiyate, tatrapi bhavati. Adhunatu swarthe nich pratyaha eva adhiyate. So nich vidhayakam sutram asti. Satyapa Pasha Rupa Veena Tula Shloka Sena Lomastacha Varma Varana Churna Churadibhyo Nichi. Dirgham Sutram. Into Vastatahatra Prastutaha Bhagahatu Laghuhueva. So Satyapa Pasha Rupa Veena Tula Shloka Sena Lomastacha Varma Varana Churna Churadibhyaha. Iti Panchami Bahuvachanantam. Nich Iti Prathama Ekavachanantam. So, as you can see here, all from the Satya till Churna, all of them are Pratipadikas. So, this sutra actually combines those Pratipadikas. Satyabhyaha Bhavati, Churadibhyaha, Nich Pratyaha Bhavati. Okay. So, if you look at this sutra in the Ashtadhyayi, 3.1.25. So, pratyaha ityadhikarah asti, pratyaha parascha adhidattascha iti, prathama tritiya adhyaye adau arabhyate, dhatoho ityadhikarah. So the dhatvadhikara starts with 3.1.22. So under that you have the nich pratyaya. Pratyaha paraha adhidattaha dhatoho ityadhikarah. So satyadibhyaha, satyadi padebhyaha. Churadibhyaha dhatubhyaha. All of them are pratipadikas, only those in the churadi are dhatu. So on these, cha paraha adhyadattaha nich pratyaha syat iti sutrathaha. So churadibhyaha nich bhavati. So there is no other condition, right? It is a compulsory nich. There is nothing else specified. So this is the first thing which we do for any dhatu of the churadi gana. So, churadiganasya dhatubhyaha, anena sutrena, swarthe nich pratyaha vidhiyate. So, the sutra for the other niches is different. Preranarthe nich, agrima sutrena, hetumaticha iti sutrena bhavati. Churadibhyaha, yaha nich vidhiyate, anena sutrena. Satyapa pasha rupa veena tula shloka sena lomatvacha varma varana churuna churadibhyaha nich. So, churadibhyaha nich pratyaha bhavati. Tertaha. Kidrishaha ayam nich pratyayaha. Nich ityatra chutu iti nakarasya itsamya bhavati. Adav vidyamanasya nakarasya. Halantyam ityanena chakarasya itsamya vidhiyate. Ikaraha shishyate. Tasyalopaha ityanena nakarasya chakarasya chalope. I iti avashishyate. So for any dhatu we are adding I at the end. That is nich. Nich pratyaha shit nasti, ting api nasti. Ting shit sarvadhatukam, ardhadhatukam sheshaha. Yatra dhatoho iti pratyaha vidhiyate, tatra sarvadhatukova, ardhadhatukova iti nirnayaha kartavyaha. Ayam nich dhatvadhikare vidhiyate. As we saw, it is in the dhatvadhikara and it is neither ting nor shit. So, it is an ardhadhatuka pratyaya. Kincha sanadhyanta dhatavaha. So, it is in the sanadi group. Ataha nijantasya sanadhyanta dhatavaha ityanena punaha dhatu samya bhavati. Ayam atideshikaha dhatuhu. As we saw earlier, there are two kinds of dhatus, aupadeshikaha dhatavaha, atideshikaha dhatavaha. So, churadayaha aupadeshikaha dhatavaha, nishpratyayasya yojane, nijantasyapi dhatu samnya bhavati, ayam atideshikaha dhatuhu, a derived dhatu. So there are a couple of questions here. First thing, is it like chvi, the nich on namapadas? Not like chvi, I mean, the chvi is in a different sense. It is in the abhuta tadbhava. Ashuklam shuklam karoti, shukli karoti. So this is shuklam karoti, athava shuklam achashte ityarthe, chvi bhavati shuklayati iti rupam bhavati. So the forms will also be different, the meaning is also different. There is one more question. Why are these pratipadikas explicitly stated if niche is added to all pratipadikas? So the niche being added to all pratipadikas is given by a vartika. The sutrakara has specific sutras and they say prapanchartham. It is just for spashta pratipatti. In some cases, like in case of the satya, there is an apuk which is added, satyapayati. So that is also the purpose of spelling it separately. In some cases, there is no purpose, it is just an extension. Generally, all pratipadikas do get niche. So, there is one more question. What is the point of niche for pratipadikas? When you say use them as dhatus, I said shuklayati, shuklam karoti, ityarthe shuklayati, iti bhavati. For all, I mean, we use it in a lot of cases. So, pratipadikasya, dhatutvam sampadyate, you can use it as a verb. You are doing anything, I mean, if the pratipadika involves an action, tat karoti, or tat achashte, you say something, satyam achashte, atava satyam karoti, tyarthe satya payati iti, as a verbal form you can use it. There's one more question. How does the meaning change on adding niche to a pratipadika? Does it become preranarthaka? No, preranarthaka is for dhatus. This is tat karoti tadachashte iti nich. It's a gana sutra in the nijanta. Tat karoti athava tat achashte vakti ityarthe. Depending on the context, depending on the meaning of the pratipadika. So either do it or tell it. Tasmin arthe nich pratyaha bhavati pratipadikebhyaha. Okay, so there is one more question which is not related to niche. If you look at the Ashtadhyayi, there are two dhatvadhikaras. So you have one dhatvadhikara which extends from 3122 to 3190. And there are one more, the second dhatvadhikara which starts from 3191 till the end of the third chapter. Ita arabhya tritiyadhyayasya samapti paryantam dvitiyaha dhatvadhikaraha. So why are there two dhatu adhikaras, why it is split, even though it's a continuous adhikara. So there is a reason, there are some karyas which operate in only the dvitiyaha dhatu adhikara, only in the second one. Asmin dhatu adhikare ityuktva kanichana karyani uchyante. So that is why the split between the two dhatu adhikaras. Yes, for kridating is a asmin dhatvadhikare, ating, the krit pratyaya which is there, and the vasarupa, etc. They depend on the different dhatvadhikaras. Okay, can we move on? Any prashnaha santiva? Okay, sayam nich pratyaha sarvebhyaha churadiganasya dhatubhyaha vidhiyate iti drishtam. Kintu, I am nityaha uta anityaha. So is it compulsorily added to all dhatus of the churadigana? Na. Kebhyaha, kebhyashtid dhatubhyaha, nityam nich bhavati. Kebhyashtid tu anityaha. So for some dhatus of the churadigana, nich is not compulsory. It is optional. Okay. So kutra nityaha, kutra anityaha. So we will first see elimination of what is anitya. Anyebhyaha sarvebhyaha nityam bhavati. Kutra anityam bhavati. ಕ್ಷೇತ್ರ ವೈಕಲ್ಪಿಕ ನಿಚ್ ಚುರಾದಿ ಗಣೆ ಗಣಸೂತ್ರಾಣಿ ಸಂತಿ ಕಾಣಿಚಿತ್. ಸೊ ಗಣಸೂತ್ರಸ್ ಆರ್ ಸೂತ್ರಸ್ ವಿದಿನ್ ದ ಗಣ. ಸೊ ವೆನ್ ಅವರ್ ಪಾಣಿನಿ ಇಸ್ ಸ್ಟೇಟಿಂಗ್ ದ ಗಣ ವಿಚ್ ಅವರ್ ಗಣ, ಸೊ ವಿದಿನ್ ದ ಗಣ ದೇರ್ ಆರ್ ಸಮ್ ಸೂತ್ರಸ್. ಸೊ ಅತ್ರ ನಿಚ್ ಚುರಾದಿ ಗಣ ಯತ್ರ ಪಠ್ಯತೆ ಚುರಸ್ತೆಯೇ ಇತ್ಯಾದಿ ತತ್ರ ಮಧ್ಯೆ ಆದೃಶಾತ್ ವಾ ಇತಿ ಗಣಸೂತ್ರಂ ಅಸ್ತಿ. ಅಯಂ ಅಂತರ್ಗಣ. ಸೊ ಇಟ್ ಇಸ್ ಅ ಸಬ್ ಕ್ಲಾಸ್ ವಿದಿನ್ ದ ಚುರಾದಿ ಗಣ. ಯುಜಾದಿ ಅಥವಾ ಆದೃಶೀಯ ಗಣ ಇತಿ ಉಚ್ಯತೆ. ಯುಜ ಸಂಯಮನೆ ಇತ್ಯಾರಭ್ಯ ಧೃಷ ಪ್ರಸಹನೆ ಇತಿ ಧಾತು ಪರ್ಯಂತಂ. ಸೊ ಫ್ರಮ್ ಇಫ್ ಯು ಗೋ ಬೈ ದೀಸ್ ನಂಬರ್ಸ್ ಆರ್ ಫ್ರಮ್ ದ ಒರಿಜಿನಲ್ ಪಾಣಿನೀಯ ಸೂತ್ರಪಾಠ. ಐ ಹ್ಯಾವ್ ನಾಟ್ ಫ್ರಮ್ ದ ದಿಸ್ ಒನ್. ಸೊ ಇಫ್ ಯು ಲುಕ್ ಎಟ್ ದಿಸ್ ದ ಧಾತು ಪಾಠ ಸ್ಟಾರ್ಟ್ ಹಿಯರ್ ಯುಜ ಸಂಯಮನೆ ಇತ್ಯಾರಭ್ಯ ಆ ಧೃಷಾತ್ ಧೃಷ ಪ್ರಸಹನೆ ಇತಿ ಧಾತು ಪರ್ಯಂತಂ. ಫ್ರಮ್ 338 ಟಿಲ್ 388 ಅರೌಂಡ್ 50 ಧಾತುಸ್ ದೇ ಬಿಲಾಂಗ್ ಟು ಎ ಗಣ ಅ ಸಬ್ ಕ್ಲಾಸ್ ಕಾಲ್ಡ್ ದ ಆಧೃಶೀಯ ಗಣ. ಆಧೃಶಾತ್ ವಾ ನಿಚ್ ವಿಕಲ್ಪೇನ ವಿಧೀಯತೆ. ಸೊ ಅಸ್ಮಿನ್ ಗಣೆ ಯೇ ಧಾತವಃ ಉಚ್ಯಂತೆ ತೇಭ್ಯ ಧಾತುಭ್ಯ ನಿಚ್ ವಿಕಲ್ಪೇನ ಭವತಿ. ಸೊ ಇಫ್ ಯು ಆಡ್ ನಿಚ್ ಯು ಹ್ಯಾವ್ ನಿಚ್ ಆನ್ ನಿಚ್ ವಿ ಆಡ್ ಶಪ್ ಲೇಟರ್. ಸೊ ಇಫ್ ದೇರ್ ಇಸ್ ನೋ ನಿಚ್ ವಿ ಡೈರೆಕ್ಟ್ಲಿ ಆಡ್ ಶಪ್. ತಸ್ಮಾತ್ ಧಾತೋ ಸಾಕ್ಷಾತ್ ಶಪ್ ಪ್ರತ್ಯಯ ವಿಧೀಯತೆ. ಸೊ ಲೈಕ್ ಯು ಹ್ಯಾವ್ ಧೃಷ ಯದಿ ನಿಚ್ ಭವತಿ ತರ್ಹಿ ಧರ್ಷಯತಿ ಇತಿ ರೂಪಂ ಯದಿ ನಿಚ್ ನ ಭವತಿ ಧೃಷ್ ಶಪ್. ಸೊ ಲೈಕ್ ಯು ವುಡ್ ಡೂ ಅ ಫಾರ್ಮ್ ಆಫ್ ದ ಭಾದಿಗಣ. ಭಾದಿಗಣೆ ಯಥಾ ಭವತಿ ಧೃಷ್ ಇತಿ ಲಘೂಪಧಃ ಪುಗಂತ ಲಘೂಪಧಸ್ಯ ಚ ಇತ್ಯನೇನ ಉಪಧಾಗುಣ ಧರ್ಷತಿ ಧರ್ಷಯತಿ ಧರ್ಷತಿ ಇತಿ ಉಭಯಥಾಪಿ ರೂಪಾಣಿ. ಸೊ ಫಾರ್ ಎನಿ ಅದರ್ ಧಾತು ಇಟ್ ಇಸ್ ದ ಸೇಮ್ ಮಾರ್ಗಯತಿ ಮಾರ್ಗತಿ ಅಂಡ್ ಸೋ ಆನ್. ಅತಃ ಆಧೃಶಾದಿ ಗಣೆ. ಸೊ ಇಟ್ ಇಸ್ ಅನ್ ಅಂತರ್ಗಣ ಇನ್ ದ ಸಬ್ ಕ್ಲಾಸ್. ಇಫ್ ಅ ಧಾತು ಬಿಲಾಂಗ್ಸ್ ಟು ದ ಆಧೃಶೀಯ ಗಣ ತದಾ ವಿಕಲ್ಪೇನ ನಿಚ್ ಭವತಿ. ನಿಚಃ ಭಾವೇ ಕೇವಲಂ ಶಪ್. ಸೊ ಶಪ್ ಇಸ್ ದ ಔತ್ಸರ್ಗಿಕ ವಿಕರಣ. ಇನ್ ದ ಅಬ್ಸೆನ್ಸ್ ಆಫ್ ಬಿಲಾಂಗಿಂಗ್ ಟು ಎನಿ ಅದರ್ ಕ್ಲಾಸ್ ವಿ ಕ್ಯಾನ್ ಆಡ್ ಶಪ್. ಅತಃ ನಿಚಃ ಅಭಾವೇ ಶಪ್ ಭವತಿ. ಯುಜಾದಿ ಇಸ್ ಅನದರ್ ನೇಮ್ ಫಾರ್ ದ ಆಧೃಶೀಯ ಗಣ ಬಿಕಾಸ್ ಇಟ್ ಸ್ಟಾರ್ಟ್ಸ್ ವಿತ್ ಯುಜ್. ವಿ ಕಾಲ್ ಇಟ್ ಯುಜಾದಿ. ಸಿನ್ಸ್ ಇಟ್ ಎಂಡ್ಸ್ ಇಟ್ ಗೋಸ್ ಆನ್ ಟಿಲ್ ಧೃಷ ವಿ ಕಾಲ್ ಇಟ್ ಆಧೃಶೀಯ. ಆ ಇಸ್ ಅಭಿವ್ಯಾಪ್ತೌ ಆಂಗ್ ಮರ್ಯಾದಾಭಿವಿದ್ಯೋ ಆ ಸಮುದ್ರಂ ಆ ಹಿಮಾಲಯಂ. ಸೊ ದಟ್ಸ್ ದ ಕಾಮನ್ ಆಂಗ್. ಸೊ ಫ್ರಮ್ ಯುಜ ಸಂಯಮನೆ ಟಿಲ್ ಧೃಷ ಪ್ರಸಹನೆ ಧಾತುಸ್ ವಿಚ್ ಆರ್ ಇನ್ ದ ಗಣ ಗೆಟ್ ಆಪ್ಷನಲ್ ನಿಚ್ ವೈಕಲ್ಪಿಕ ನಿಚ್ ಭವತಿ. ಅನ್ಯದಪಿ ಗುಣಸೂತ್ರಮಸ್ತಿ ಆಸ್ವದಃ ಸಕರ್ಮಕಾತ್. ಸೊ ಗ್ರಸಗ್ರಹಣೆ ಇತ್ಯಾರಭ್ಯ ರುಜ ಹಿಂಸಾಯಾಂ ಬಿಫೋರ್ ದಿಸ್ ಸ್ವದ್ ಏಭ್ಯ ಧಾತುಭ್ಯ ಸಕರ್ಮಕತ್ವೇ ನಿಚ್ ಭವತಿ ಅಕರ್ಮಕತ್ವೇ ನಿಚ್ ನ ಭವತಿ. ಸೊ ವೆನ್ ದ ಧಾತುಸ್ ಆರ್ ಯೂಸ್ಡ್ ಆಸ್ ಸಕರ್ಮಕಸ್ ದೇ ಗೆಟ್ ನಿಚ್. ವೆನ್ ದೇ ಆರ್ ಯೂಸ್ಡ್ ಇನ್ ಅನ್ ಅಕರ್ಮಕ ಸೆನ್ಸ್ ದೇ ಡು ನಾಟ್ ಹ್ಯಾವ್ ನಿಚ್. ಸೊ ದ ಮೀನಿಂಗ್ ಆಫ್ ಅ ಧಾತು ವಿಲ್ ವೇರಿ ಡಿಪೆಂಡೆಂಟ್ ಆನ್ ದ ಕಾಂಟೆಕ್ಸ್ಟ್. ಈವನ್ ದೋ ದ ಸೂತ್ರಾರ್ಥ ಐ ಮೀನ್ ದ ಧಾತ್ವರ್ಥ ವಿಲ್ ಬಿ ಸಮ್. ಸೊ ದೇರ್ ಆರ್ ಸಮ್ ಕೇಸಸ್ ವೇರ್ ಇಟ್ ಕ್ಯಾನ್ ಬಿ ಸಕರ್ಮಕ ಇಟ್ ಕ್ಯಾನ್ ಬಿ ಅಕರ್ಮಕ. ಸಕರ್ಮಕತ್ವೇ ನಿಚ್ ಭವತಿ. ಸೊ ದಿಸ್ ಇಸ್ ದ ಆಧೃಶೀಯ ದ ಆಸ್ವದೀಯ ಇಸ್ ಹಿಯರ್. ಸೊ ಫ್ರಮ್ ಗ್ರಸ ಗ್ರಹಣೆ ಟಿಲ್ ಯು ಹ್ಯಾವ್ ಶ್ವದ ಆಸ್ವಾದನೆ ಹಿಯರ್. ಸೊ ಬಿಫೋರ್ ದಟ್ ಸ್ವದ ಇಸ್ ಅಪರೆಂಟ್ಲಿ ಅಕರ್ಮಕ. ಸೊ ಬಿಫೋರ್ ದಟ್ ರುಜ ಹಿಂಸಾಯಾಮ್ ಏತತ್ ಪರ್ಯಂತಂ ಯೇ ಧಾತವ ಸಕರ್ಮಕಃ ಯದಾ ಸಕರ್ಮಕಾರ್ಥೆ ಧಾತೋ ಪ್ರಯೋಗಃ ತದಾ ನಿಚ್ ಭವತಿ ಅಕರ್ಮಕಾರ್ಥೆ ನ ಭವತಿ. ಓಕೆ. ಸೊ ಇಟ್ ಇಸ್ ಆಲ್ಸೋ ಅನ್ ಆಪ್ಷನಲ್ ನಿಚ್. ಯು ಹ್ಯಾವ್ ಬೋತ್ ಫಾರ್ಮ್ಸ್ ಬಟ್ ದೇರ್ ಇಸ್ ಅ ರಿಸ್ಟ್ರಿಕ್ಷನ್ ಆನ್ ವೇರ್ ಇಟ್ ಇಸ್ ಯೂಸ್ಡ್. ಇನ್ ಕೇಸ್ ಆಫ್ ದ ಆಧೃಶೀಯ ಧಾತುಸ್ ಇನ್ ದ ಮೀನಿಂಗ್ ಆಫ್ ದ ಧಾತು ಇಸ್ ಅನ್ಚೇಂಜ್ಡ್. ಯು ಕ್ಯಾನ್ ಈದರ್ ಯೂಸ್ ದ ನಿಜಂತ ಫಾರ್ಮ್ ಆರ್ ದ plain form without nich, whereas in case of the asvadiya dhatus it depends on the meaning in which you are using it. Sanchit Rupa Dvayam Api Nishpadyate. For Rupa Nishpati, we have forms with Nich, without Nich, both. Punashcha Vanijantaha Iti Ganasutram Asti, Ekasyaiva Dhatoho, Patagatau Iti Dhatuho Asti, Patagatau Iti Pathitva, Vanijantaha Iti Ganasutram Asti, Ataha Asmad Dhatoho, Nich Vikalpena Vidhiyate. Okay. So these are the three Gana Sutras. If a dhatu belongs to these two Ganas or is Pata Gatau Dhatu, we have a optional Nich Pratyaya. Vikalpena Nich Pratyaya Bhavati. So the question of Prashna has been in the first Gana, Adhrishadva, we include the Dhrisha Dhatu, whereas in Asvadaha, we have not included the Svara Dhatu. Why? The thing, there are two kinds. Ang can be used in both Maryada and Abhividhi, which is an inclusive limit and an exclusive limit. And you say, Amuktehe Samsaraha. So this Samsara exists till Mukti, not including. So if you have Mukti, the Samsara falls off. So that is what we call Maryada. If you say Abalam Hari Bhakti, including boys, even small boys, there is Hari Bhakti. So it's an inclusive limit. Ang is used in both of these senses. So that is nothing special. But here, actually they say Asvadaha Sakarmaka Ityatrapi Abhivyapakaha Ityeva Uchyate. Kintu Svadadhatohu Sakarmakatve Prayogaha Nasti. Svadadhatu is not used in Sakarmaka sense. Taha sambhavat karmabhyaha eva nichvikalpaha iti uktatvat svadadhatoho nich nityam eva bhavati iti siddhanta. Okay, atra ebhyaha ganasutrebhyaha nich vikalpena vidhiyat. There are also other cases where nich is vikalpa. Churadigane ye dhatavaha idit udit athava udit eshu dhatushu ikaraha, ukaraha, ukarova, itsamyam, rapnoti, te dhatavaha, tesha, tebhyaha dhatubhyaha, nich vikalpena vidhiyate. So why? There is a logic behind this. So if you go back to the dhatu patha, so you can see that there are some dhatus. There was also Udit, which I must have missed. Okay. So there are Idit and Udit, Idit and Udit dhatus. So for these dhatus, Nich is optional. Kimartham Nich Vikalpena iti prashna hodeti. Idit, as I have said earlier, Itsamya yatra vidhiyate, tatra kimapi prayojanam bhavati. Itsamyayaha kinchit prayojanam bhavati. Yatha yadi ikaraha itsamyakaha. We are talking of idit dhatus. Yadi ikaraha itsamyakaha. Tarhi shvidito nishthayam ityanena in nishedhaha phalati. So the shvi iditaha nishthayam iti sutramasti. When followed by nishtha. Kta ktavatu nishtha. Kta and tavatu are called the nishtha pratyas. So nishthayam parataha. In nishedhaha phalam. If a dhatu is idit, in it idagama is prevented when followed by nishtha. Idanim churadiganasya dhatu hasti. The dhatu of churadigana is never directly followed by kta or ktavatu. Kadapi avyavahitatvena nishtha pratyaha na bhavati. Because if we always add nich compulsorily, kadapi nishtha parakatvam na bhavati. Tarhi iditvam kimartham. If it can never contact the nishtha directly, yadi sarvatra nich pratyaha bhavati, tarhi kutrapi nishtha pratyaya paratvam na bhavati, tarhi iditvasya kim phalam. Why was it made an idit at all? It would be pointless. So based on this, we say if the dhatu is idit, nich vikalpena bhavati. Yatra nich nasti, tatra nishtha parakatve in nishedhaha iditvasya phalam. Okay. So it is because of that power of being idit. If nich is compulsory for these dhatus,
making it Edith is pointless. Edith asya kimapi prayojanam na bhavati. So why have that ikara as it at all? It would be easier to have an akara. So Edithvasya visheshya ikaraha itsamyakatvena uchyate ityata eva nich vikalpyate. The same is the case with Udit. Udit Uditam dhatunam Uditova iti sutrena ktvayam it vikalpyate. Okay. When followed by a ktva pratyaya, it is made optional if the dhatu is Udit. So the same logic. If nich is compulsory, the dhatu, plain dhatu, will never have ktva, will never meet ktva. So the Udit is vyartha. Vyartham sat nich vikalpyate iti jnapayati. Same with Udit. Swarati suti suyati dhunya uditova ityanena. Udit dhatavaha vikalpena itam prapnuvanti. Any dhatu which is Udit is usually wait. Okay. So when followed by a valadi arthadhatuka. Atatu yadi nich bhavati ayam valadihi na. Ataha nichipare asya prayojanam nasti. Anyesham pratyayanam sakshan parakatvam yadi na bhavati. Tarhi uditvam vyartham. So based on this, if a dhatu has a specific itsamya letter, like ikara, ukara or ukara, they are all optional nich dhatus. So tevbhyaha dhatubhyaha vikalpena nich vidhiyate. Yadyapi saha dhatuhu antargane nasyat, tathapi nich vikalpena vidhiyate. Similarly with idit, ye dhatavaha iditaha. So iditvasya kim prayojanam? We know if a dhatu has hrasva ikara as itsamya, idito num dhatoho ityanena numagamaha bhavati. Sevadi ityasya vand, lavi ityasya lambh ityadi. So why not directly give nakara? Kimartham nakaraha anantaram yujyate. As any of you remember, why do we do this? Why not directly give the dhatu as vand? Kimartham sakshat nakaraha nochyate, kimartham iditvam krutva iditaha dhatoho num agamaha kriyate. Sakshat dhatu pathe kimartham nakara sahitaha dhatuhu na pathyate. Is there a purpose? Exactly. So, aniditam dhatunam nalopaha vidhiyate. If it is not by idit, yadi sakshat dhatau nakaraha upadishyate, tarhi aniditam hala upadhayaha kiniti, iti sutramasti. Kiting iti cha pratyaye pare, aniditam dhatunam, that is, those dhatus which originally have a nakara, not derived from due to idit. Okay. So, for those dhatus, the nakara will be deleted. You have mantha dhatuhu, sakshad nakaraha upadishyate, kiti niti, yadi kit pratyaha, yatha akta pratyaha, tatra nakaraha lupyate, mathita iti rupam. Vand dhatostu, vandita ityeva rupam, nakarasya lopaha na bhavati. Yatra dhatuhu idit, iditvat numagamaha kriyate, tatra nalopaha na bhavati. Yatra dhatau mulataha nakaraha pathyate, tatra nalopaha bhavati kitiniti cha pratyaye. So that is why there is a technique. There are some dhatus which originally have an akara. There are some which in which it is generated by being idit. Irani yadi churadi gane kashchana idit dhatu asti numagamaha bhavati. So a churadi gana dhatu always has nich. Nich is neither kit nor nit. Kitvam va nitvam va nasti. Ataha nalopasya prasangaha nasti. There is no nalopa possibility. So in that case, why bring in nalopa? Sakshat nakaraha yadi uchyate, yatha chiti iti dhatu asti, sakshat chinta iti datteti, kleshaha nasti. Since it always meets nich, there is no prasakti of nalopa. నలోపస్య ప్రసక్తిరేవ నాస్తి. అతః కితిం ఇతి చ నలోపం వారయితుం ఇదిత్వాత్ నుమాగమః ఇతి వక్తుం న శక్యతే. యు కెనాట్ సే దట్ ద నకార ద ఇదిత్ ఇస్ టు ప్రొటెక్ట్ ద నకార ఫ్రమ్ బీయింగ్ లాస్ట్. సో తత్తు న భవతి. సర్వదా యది నిచ్ భవతి తర్హి నలోపస్య ప్రసక్తిరేవ నాస్తి ఇత్యతః ఇదిత్వం వ్యర్థం. సో ఇట్ ఇస్ useless to bring in nakara by idit when it would have been easier to directly give the nakara in the dhatu. Ataha ye idit dhatavah tebhyah api vikalpena nich bhavati. So because of the samarthya idit karana samarthyat nich vikalpyate. So for all idit dhatus except these four, and there are four idit dhatus, yatri, matri, tatri and kudri. So the problem with these is, not the problem, say there is idit, so it becomes yantrayati, mantrayati, tantrayati, kundrayati, iti rupani. So assuming that they don't have nich, yadi nich bhavati, tathapi yadi kit pratyayah asti, yatha yatra dhatuhu kta pratyayah. So even there, aniditam halaupadhayah kingiti will not operate because nakara is not in the upadha. Yadi yatri ityatra, నుమ్ ఆగమః అంత్యాద్ అచః పరః క్రియతే. య న్ త్ ర్ ఇత్యస్తి తత్ర ఉపధాయాం నకారః నాస్తి. ఈవెన్ ఇఫ్ యు డు నుమాగమ ద నకార ఇస్ నాట్ దేర్ ఇన్ ద ఉపధా. అతః అత్ర వెదర్ యు హావ్ నిచ్ ఆర్ యు డు నాట్ హావ్ నిచ్ దేర్ ఇస్ నో నలోప ప్రసక్తి. సో దేర్ ఇస్ నో రీజన్ వై దే షుడ్ హావ్ ఇదిత్ అట్ ఆల్. అత్ర ఇదిత్ కరణం వస్తుతః వ్యర్థమేవ. యది పాణినిః యంత్ర మంత్ర తంత్ర కుంద్ర ఇత్యేవ పఠేత్ తదేవ సాధు ఇతి సిద్ధాంతః. బికాస్ వెదర్ యు హావ్ నిచ్ ఆర్ యు డు నాట్ హావ్ నిచ్ ద నుమాగమ ఆర్ ఇదిత్ డస్ నాట్ ఫైండ్ అ ప్రయోజన. సో ఫార్ దీస్ వి డు నాట్ యూస్ ద లాజిక్ టు స్టేట్ నిచ్ వికల్ప. ఏభ్యః ధాతుభ్యః నిచ్ నిత్యమేవ భవతి. తాన్ విహాయ ఏతాన్ చతురః ధాతూన్ విహాయ అన్యేభ్యః ఇదిత్ ధాతుభ్యః నిచ్ వికల్ప్యతే. సో బేసికలీ ఫర్ ఇదిత్ ఈదిత్ ఉదిత్ అండ్ ఉదిత్ సో ఏభ్యః ధాతుభ్యః నిచ్ వికల్ప్యతే ఇత్ కరణ సామర్థ్యాత్ బికాస్ ఆఫ్ ద సామర్థ్య ఆఫ్ గివింగ్ అ స్పెసిఫిక్ ఇత్ లెటర్. ఓకే, ఎనీ క్వశ్చన్స్? Okay. So and then there is adantaha dhatavah santi, so which we will see later. So churadishu ketana dhatavah adantaha santi, teshu adanteshu sanyogopadhaah dhatavah yatra upadhayam sanyuktah varnah drishyate te tesham nich vikalpyate. So if you look, there are a certain dhatus, akarantaha, adantaha dhatavaha. Yatra katha ityatra, antyasya akarasya itsamya nasti. Katha iti akarantaha, adantaha dhatu. So there are such dhatus, adantaha dhatavaha santi. Tatra kvachit upadhayam nich drishyate. So if you see here, garva ityasti. So akarasya upadhayam rephavakarau staha. Similarly, mutra, ruksha, ityadi santi, satra, na satra ityasi, artha ityadi. So, yesham upadhayam adanta esho dhatushu, yesham upadhayam sanyuktaksharam drishyate, tesham dhatu, te dhatavaha api vikalpena nicham prapnumanti. Okay. So, except sakaradi, in the, సత్ర ఇతి ధాతు అస్తి తత్ర ఉపధాయాం సంయుక్తాక్షరం అస్తి కింటూ సహ సకారాది తస్య న భవతి. ఓకే, సో ద లాజిక్ బిహైండ్ దిస్ ఇస్ అగైన్ దట్ వైయర్థ్య. ఓకే, సో ఐ విల్ కమ్ టు దిస్ లేటర్. అద్య నిదంతస్య ప్రక్రియాం పఠామః. అంతే వదామి కిమర్థం అదంతేషు సంయోగోపధాః ధాతవః నిచం వికల్పేన ప్రాప్నువంతి ఇతి అంతే ఉచ్యతే. సో ఫర్ నౌ జస్ట్ రిమెంబర్ బట్ దీస్ ధాతుస్ will get optional niche. Atra dhatu pathe
sarvam etat sarvam sangrihya eva nijvikalpaha iti sthapitah. So she has made, Dikshit Mahodaya has made a vaikalpika nich varga. They collecting all these. I'm still explaining all these because you should know why. Dhatupathe nijvikalpaha iti drishyate chet vikalpena nich bhavati iti satyam. Kintu kimartham iti tu gnyatavyameva. Ataha uchyate. Tatra yatra yatra nichvikalpaha asti, tatra eteshu kvachid antarbhavati. So punaha bhu iti dhatuhu, krupa iti dhatuhu asti, etayohu avakalkane arthe nich bhavati. Avakalpanam nama mishrikaranam, to mix ityarthaha asti, tasmin arthe nich vikalpena bhavati, anyeshu artheshu. So these dhatus are also used in other meanings. So anyeshu artheshu chintanam ityarthaha asti, teshu artheshu nich na bhavati. Okay, tatu vyakshana deva bhavati. So for bhu and krupa, avakalkane arthe nich bhavati, anyeshu artheshu nich na bhavati. Iti nichaha nitya nitya vicharaha. Other than these. So we saw the cases where there are antarganas. Adhrishadihi ganaha asti, adhrishiyaha ganaha, asvadiyaha ganaha. Eteshu ganeshu yedhatavaha, tebhyaha nich vikalpyate, pata iti dhatorapi nich vikalpyate, ganasutra samatya. Because there are specific ganasutras which tell it. Yeshu dhatushu vishishya ikaraha, ikaraha, ukaraha, ukarova itsamyam prapnoti, tedhatavaha vikalpena nicham prapnuvanti. Adanteshu sanyogopadhaha dhatavaha nicham vikalpena prapnuvanti. Bhu krupa ityetayoho dhatvoho artha visheshe nich vikalpena bhavati. Clear? There's a question, is there another bhu dhatu in the churadi? Yes, there is a bhu praptav also. Bhu praptav ityapi dhatuvo. Clear? Churadiganasya sarvebhyaha dhatubhyaha satyapapasha iti sutrena nich bhavati. Sacha nich bahushaha nityaha. For most of the dhatus it is nitya. If the dhatu belongs to some of these cases, then nich is optional. Okay. So if you look at this. So nich vikalpaha iti yatra asti, teshu tesham dhatu nam nich vikalpena bhavati. Okay. So there are probably around 100 dhatus which get nich optional. So 178. Oh, that's quite a number. So for 178 dhatus, nich is vikalpa. For the rest, nich is compulsory. Okay. Nijanteshu padavyavastha. Kim padam bhavati? Parasmepara pratyayahava, atmanepara pratyayahava. Nichashtra iti sutramasti, purvamapi adhitam. Nichaha iti panchami. Atmanepadam iti anuvartate. Kartabhipraye kriyaphale ityapi anuvartate. Nijantat atmane padam syat kartrugamini kriyaphale. Yatra kriyaphalam kartaram uddishya bhavati. Tatra nijantat dhatoho atmane padam bhavati. Itha chorayati. Chauryasya yat phalam dhanadikam labhyate. Tat atmartham chet yaha chorayati tadarthameva chet. Tarhi atmane padam tada chorayate iti bhavati. Yadi anyesham krute choranam chauryam karoti. If he steals for somebody else, tada parasmeipadam bhavati. Iti vyavastha. Ataha nijantaha ubhayapadhinaha. Kartragamini kriyaphale nichascha iti atmanepadam bhavati. Sheshat kartari parasmeipadam. Anyeshu artheshu parasmeipadam bhavati. Ataha prayaha sarve nijantaha ubhayapadhinaha. So mostly nijantas are ubhayapadis because of nichascha. So you have chorayati, chorayate.
कथयति कथयते इति उभयं भवति किन्तु अत्रापि अपवादाः सन्ति पुनः गणसूत्रमस्ति आकुस्मात् आत्मनेपदिनः इति अयमपि अन्तर्गणः चितसञ्चेतने इत्यारभ्य कुस्मनाम्नो वा इत्येतत् पर्यन्तं ये धातवः अराउण्ड् 45 धातुस् ते आकुस्मीयगणि चितसञ्चेतने इत्यारभ्य आकुस्मीयगणः आरभ्यते कुस्म धातुपर्यन्तं कुस्म कुत्सितस्मयने इति धात्वर्थः सो तत्पर्यन्तं ये धातवः ते सर्वे आत्मनेपदिनः आकुस्मादात्मनेपदिनः इति गणसूत्रवशात् अन्यदपि गणसूत्रमस्ति आ गर्वाद् आत्मनेपदिनः इति सो पदगतौ इत्यारभ्य गर्वमाने इत्येतत् पर्यन्तं दश धातवः सो देयर ओन्ली 10 धातुस् हियर् सो तेभ्यः अपि आत्मनेपदं भवति सो अराउण्ड् 55 धातुस् इन् द चुरादिगण आर् कम्पल्सरिली आत्मनेपदिन् तेभ्यः आत्मनेपदप्रत्ययाः एव भवन्ति अन्ये सर्वेऽपि धातवः उभयपदिनः सो द रेस्ट् आर् आल् उभयपदीस् एक्सेप्ट् दीस् So these are the ganas. There is one or two more where because of the it, there is a dhatu where there is an anudatet. Because of it, it gets atmanepada. I think there are two or three more outside these ganas which get atmanepada. That is specifically due to commentaries or usage. But these are the only sutras. So nijantaha, nijante krute. प्रायेण उभयपदित्वं क्वचित् आत्मनेपदित्वं येषां धातूनां निच् विकल्पेन भवति सो एज़् वी सॉ देयर आर धातुस् विच् गेट् निच् ऑप्शनली तेषां निचि कृते उभयपदित्वं यत्र निच् न भवति सो यू हैव केसेस वेर यू डायरेक्टली ऐड शप् तत्र तु पदव्यवस्था स्वरमनुरुध्य भवति इट इज़ द यूजुअल पदव्यवस्था यदि अनुदात्तङित आत्मनेपदं स्वरितनीतः कर्तृभिप्राये क्रियाफले आत्मनेपदं शेषात् कर्तरि परस्मैपदम् इफ् यू डू नाट् एड् निच् पद हेज् टु बी डिसैडेड् बेस्ड् आन् द इत् संज्ञा लेटर् इफ् इट् हेज़् अनुदात्त आर् ङित् एज़् इत् देन् इट् विल् गेट् ओन्ली आत्मनेपद इफ् इट् हेज़् स्वरितस्वर आर् ङित् इट् विल् गेट् बोत् अदर्वैस् इट् गेट्स् ओन्ली परस्मैपदम् निचि कृते एव उभयपदित्वम् अत्र एकः प्रश्नः अष्टाध्याय्यां गणसूत्राणि कुत्र दृश्यन्ते अष्टाध्याय्यां न दृश्यन्ते गणपाठे एव दृश्यन्ते दे आर् नाट् इन् द मेन् बाडी आफ् द अष्टाध्यायी यदा गणपाठः क्रियते गणपाठः दृश्यते चेत् मध्ये एव सूत्राणि भवन्ति सो विदिन् गणस् यु फैण्ड् दट् इवन् इन् द प्रातिपदिक गणस् आल्सो इन् द धातु गणस् तो चुरादिगणे शुद्धः परस्मैपदी धातुः नास्ति देर् इस् नो धातु विच् इस् कम्पल्सरिली परस्मैपदी इट् इस् ईदर् उभयपदी आर् आत्मनेपदी ओन्ली सो गणपाठस्य धातुपाठस्य च कः भेदः धातुपाठ इस् आल्सो लैक् अ गणपाठ यु हाव् द गणास् भादि अदादि एट्सेट्रा वी स्पेसिफिकली काल् इट् अ धातुपाठ बिकास् इट् रिलेट् स्पेसिफिकली टु धातु गणाः तु प्रातिपदिकानां ये गणः यथा सर्वादिः चादिः प्रादिः ते सर्वेऽपि गणत्वेन व्यवह्रियन्ते भादिपाठः तु धातुपाठः इति व्यवह्रियते किन्तु उभयत्रापि गणसूत्राणि भवन्ति दे आर् आल् गणास् गण इस् जस्ट् अ क्लास् सो वेर् अ क्लास् आफ् स्पेसिफिक् words are mentioned they are called ganapatha so you can have gana sutras in both dhatu patha and in the ganapatha so prayena vyavaharah namnah vyavaharah ganapathah iti pratipadikanam ye ganah tesham ganapathah iti vyavaharah bhadi pathasya tu dhatu patha iti vyavaharah but I mean if you look at their characteristics both of them are ganapathas ubhayatra api gana sutrani drishyant
So now we have seen nich. Churadiganase dhatavaha. Let us forget those which are vaikalpika nich. Because, I mean, those forms we already know. Yadi nich na bhavati, tarhi bhadiganasya yatha rupam, tathaiva rupam bhavati. You just add shap. Whatever is the angakarya for shap, you do shap and over. So those forms, if you do not add nich, the the forms, derivation of forms is completely like that of the Bhadigana. If it is niche, when you add niche, how do we derive the forms? That is what we are going to study now. Question? So, as we said, it's the Gana Sutra which determines the Atmanepada for the Nijantas, not the Sutra in the Ashtadhyayi. Ashtadhyayam to Nijantas Samanyataya Ubhayapaditvameva Vidhiyate. Because of the Gana Sutra in the Churadi Gana Dhatu Patha, we have Atmanepaditva for these Dhatus. Okay? So, now we will go on to derivation of forms of Nich. Okay? There are two steps. Yatra Nijantebhyaha Nijantanam Rupasiddhihi Adhiyate. Tatra, there are two main steps. One is to add nich and get the nijanta dhatu. Nichaha yojanam katham. Once you have the nijanta dhatu, how do we add the rest of the pratyayas and get the form? So we see the derivation in two steps. The second step we have already done. So it is only the first step which we need to study. Yada dhatoho nich pratyaha bhavati, kim karyam bhavati. What is the angakarya which happens between the dhatu and the nich pratyaya? Nichi pare kani karyani bhavati. How do we add nich to the different dhatus? Okay. So for this, as usual, we take the that is where Pushpa Dikshit's vibhaga is most useful. So as you see, we classify it by the anta. So when you are adding a pratyaya, always ajanteshu antimam varanam ashritya angakaryam bhavati, halanteshu upadhabhutam varanam ashritya karyam bhavati. So first, there are only very few ajanta dhatus in the churadigana. Bahu nyunaha eva santi, shatva saptava. So anye sarve halantaha eva. So katham bhavati. Akarantaha, yadi dhatuhu akarantaha, tarhi arti hli vli ri knui kshma yatam pum nau iti sutramasti. R arti iti sutra arti iti ase r dhatu ho iti arthaha. Hri vli ri knui kshmai atam iti shashti bahuvachanam. Puk iti prathama ekavachanam. Nau iti saptami ekavachanam. Okay. So etesham puk bhavati nau nichipare. Angasya ityadhikaraha. So artyadina, there are six specific dhatus which are mentioned here. Atam, akarantanam chadhatunam, angasya puk iti agamaha bhavati nau pare. So an akaranta dhatu and these specific dhatus, when they are followed by nich, they get puk as the agama. Adyantau takitau, titkitau adhyantavayavau staha. Kit agama is added to the end of the dhatu. So, gnya iti dhatuhu nich bhavati. So, gnya I puk pakaraha agamaha gnyapi iti bhavati. Gnyapi iti dhatuhu. Gnyapayati, gnyapayataha, gnyapayanti. Okay. So, there is only one akaranta dhatu in the churadigana.
ಚುರಾದಿಗಣೆ ಏಕ ಏವ ಆಕಾರ ಅಂತಹ ಧಾತು ಅಸ್ತಿ ಕಿಂತು ಇದಂ ಸೂತ್ರಂ ಕೇವಲ ಚುರಾದಿಗಣಸ್ಯ ನ ಇಟ್ ಇಸ್ ನಾಟ್ ಓನ್ಲಿ ಫಾರ್ ದ ಚುರಾದಿಗಣ ಇಟ್ ಆಲ್ಸೋ ಅಪ್ಲೈಸ್ ಫಾರ್ ದ ಪ್ರೇರಣಾರ್ಥ ಕಣಿಚ್ ಸೊ ಯದಾ ದಾ ಧಾತು ದದಾತಿ ದಾಪಯತಿ ತಿಷ್ಠತಿ ಸ್ಥಾಪಯತಿ ಸರ್ವತ್ರ ಯು ಹಿಯರ್ ದಟ್ ಪಕಾರ ಫಾರ್ ಆಕಾರ ಅಂತ ಧಾತು ಇಟ್ ಇಸ್ ಬಿಕಾಸ್ ಆಫ್ ದಿಸ್ ಸೂತ್ರ ಓಕೆ ಅರ್ತಿ ಹ್ರೀ ವ್ಲೀರಿ ಕ್ನುಯೀಕ್ಷ್ಮಾಯಾತಾಂ ಪುಂಗ್ಣೌ ಇತ್ಯನೇನ ಪುಕ್ ಆಗಮಃ ಭವತಿ ಚುರಾದಿಗಣೇ ತು ಏಕ ಏವ ಧಾತುಃ ಆಕಾರಾಂತಃ ತಸ್ಯ ಪುಕ್ ಭವತಿ ಜ್ಞಾಪಿ ಇತಿ ಧಾತುಃ ಅನಂತಕೃಷ್ಣ ಮಹೋದಯ ಪ್ರಶ್ನ ಅಸ್ತಿ ಹಲೋ ಡು ಯು ಹ್ಯಾವ್ ಎ ಕ್ವೆಶ್ಚನ್ Was there a loss in audio? I mean, was there a break in class? I don't know. I mean, I didn't feel anything. Usually I get a message if there is...
The connection, I think. At least I lost the internet. It said that crash of GoToMeeting server. Then it went and re-established. I saw some text from few people in US at least. So I don't know. Maybe India it didn't happen, but it happened here. But anyway, I'm sure you have the recording, so at least we'll get a full class.
How long was it?
About few minutes, because from the time it, maybe 5 minutes or something like that. Or I don't know exactly, but...
Okay. So where was I before you lost the connection?
I think few slides back, but that's okay. I mean, as long as we have the class uploaded, we will get the...
So just making sure that you don't miss the flow, we are seeing how we are adding niche to different dhatus. And churadiganasya dhatubhyaha niche pratyayasya yojanam katham bhavati iti adhiyamanam asti. There are a couple of questions here. It is vli. I mean, in the sutra, there is a typing error. It is arti hri vli ityeva dhatuhu. It is not vli. So that is one. There was one more. Typo in the last word of the slide. Which slide? The previous slide or this slide? This slide has dapi. It seems to be fine. Okay. So anyway, akaranta nam dhatu nam nichi pare puk iti agamaha bhavati. Pukagame pakaraha agamaha. So gnya dhatohu gnyapi iti bhavati. So anyesham iganta nam dhatu nam achoyniti iti vriddhihi. We have studied this already in the angakarya. Nit yatra pratyayaha nit bhavati tatra ಅಚೋಯಣಿತಿ ಇತ್ಯನೇನ ವೃದ್ಧಿ ಭವತಿ ಸೊ ಇಕಾರಾಂತಾನಾಂ ಧಾತೂನಾಂ ವೃದ್ಧಿ ಐಕಾರಃ ತತಃ ಏಚೋ ಅಯವಾಯಾವಃ ಇತಿ ಆಯಾದೇಶಃ ಸೊ ಚಿ ಬಿಕಮ್ಸ್ ಚೈ ಇ ಆಯಾದೇಶೇ ಕೃತೆ ಚಾಯಿ ಇತಿ ಧಾತುಃ ಏವಂ ಉಕಾರಾಂತಾಃ ಯದಿ ತರ್ಹಿ ವೃದ್ಧಿಃ ಔಕಾರಃ ಏಚೋ ಅಯವಾಯಾವಃ ಇತ್ಯನೇನ ಆವಾದೇಶಃ ಯು ಇ ಬಿಕಮ್ಸ್ ಯೌ ಇ ಯಾವಿ ಭೂ ಇ ತತ್ರಾಪಿ ವೃದ್ಧಿಃ ಔಕಾರಃ ಭೌ ಇ ಭಾವಿ ಚಾಯಯತಿ ಯಾವಯತಿ ಭಾವಯತಿ ಋಕಾರಾಂತಾಃ ಧಾತವಃ ತೇಷಾಂ ವೃದ್ಧಿಃ ಆಕಾರಃ ಉರಂಡ್ರಪರಃ ಇತ್ಯನೇನ ರೇಫಸಹಿತಃ ಆರ್ ಇತಿ ಭವತಿ ಗೃ ಇ ಬಿಕಮ್ಸ್ ಗಾರ್ ಇ ಗಾರಿ ಗೃ ಗಾರಯತಿ ಪೃ ಪಾರಯತಿ ಪೃ ಇ ಬಿಕಮ್ಸ್ ಪಾರಿ So other than akara anta, any other dhatu will get achoyaniti ityanena vriddhihi bhavati. Okay, this is in case of the ajantas. Tataha adantaha iti kechana dhatavaha santi. We have adanta dhatus in the churadigana. Adanta dhatus, remember, are very very rare. If you go to any other gana, you will not find adanta dhatus. यदि अकारः अन्ते अस्ति तर्हि इत्सम्यकः भवति तस्य लोपः भवति ओके अत्र तु अदन्ताः सन्ति दिस् इस् वन् थिङ्ग् विच् यु हेव् टु बि केर्फुल् वैल् लुकिङ्ग् एट् द चुरादिगणपाठ इफ् यु डु नाट् हेव् द धातुपाठ वेर् द स्वराज् आर् टोल्ड् इट् इस् डिफिकल्ट् टु यु नो पायिण्ट् दीस् औट् यथा चुरस्तेये इति उच्यते तत्र अकारस्य इत्सम्या अस्ति यु केन् सी लड जल नट इन् आल् दीस् केसस् अकार ईस् इत् बट् इफ् यु गो लेटर् सो यु हाव् हियर् सो द स्वर रच कल कथ वर गण इन् आल् दीस् अकार इस् नाट् इत् सो अन्लेस् यु हाव् दट् मार्किङ्ग् यु मैट् नाट् बि एबल् टु identify just by listening to the dhatu you will not be able to identify whether it is adanta or not okay so rupe bhedah bhavati yadi dhatuh adantah tarhi atolopah iti sutram asti atah iti shashti ekavachanam lopah iti prathama ekavachanam angasya ityadhikare ardha dhatuka adhikare asti asiddhavadatrabhat ityapi so adantasya angasya अतः अङ्गस्य इत्यस्ति अदन्तस्य अङ्गस्य लोपः स्यात् अर्धधातुके परे सो वेन् फालोड् बै एनी अर्धधातुक प्रत्यय एन् अदन्त अङ्ग इस् डिलीटेड् अलोन्त्यस्य इत्यनेन अन्त्यस्य अकारस्य लोपः सो कथ इ इत्यस्ति अतः लोपे कथ इ कथि क्षिप इ क्षिप इ सो वाट् इस् द डिफरेन्स् यदि इत्सम्यया अकारः लुप्यते अथवा अतोलोपः इत्यनेन लुप्यते को भेदः वाट् इस् द डिफरेन्स् चेत् यत्र अतोलोपः इत्यनेन अकारः लुप्यते तत्र लुप्तस्य अकारस्य स्थानिवद्भावः भवति सो वि ब्रिङ्ग् इन् दट् अकार बै स्थानिवद्भाव यदि स्थानिवद्भावेन आगच्छति तर्हि उपधावृद्धिः न भवति उपधायाः गुणः अपि न भवति एज़् वी नो इफ् यु हाव् तड धातु वेर् अकार इस् इत् तड् इति धातुः तड् इ बिकम्स् ताडि ताडयति लाडयति इत्यादि रूपाणि भवन्ति किन्तु कथ इत्यस्य काथयति इति न भवति सो इफ् द धातु इस् अदन्त द पर्पस् आफ् द अकार इस् टु प्रिवेण्ट् द previous akara from being modified it will not allow this akara to get vriddhi or this to get guna yadi chit dhatu asti tarhi chetayati upadhayaah pugantala bhupadasya cha ityanena gunah bhavati athava ata upadhayaah ityanena upadhayaah vriddhihi bhavati atah atah parasmin purva vidhau paranimittah ajadeshah paranimittah nich pratyaya nimittah ajadeshah अकारस्य लोपरूपः अतः अकारस्य लोपरूपः आदेशः स्थानिवत् स्यात् स्थानिभूदाद् अतः अकारात् पूर्वत्र दृष्टस्य पूर्वतन अकारस्य इकारस्य वा विधौ कर्तव्ये सो बै अतः परस्मिन् पूर्वविधौ द अकार गेट्स् स्थानिवद्भाव बिकास् आफ् स्थानिवद्भाव इफ् द अकार इस् प्रेसेण्ट् दिस् अकार द फस्ट् अकार इस् नो लाङ्गर् इन् द उपधा Similarly, the ikara in kshipu is no longer in the upadha. Yadi akara asti, tarhi purvatana akara se ikara seva upadhatvam nasti. Ataha, ata upadhayaha itiva, pugantalaghupadhasvicha itiva, na bhavati. So we do not have the upadha vriddhi or the upadha guna. So that is the purpose of having that akara. Yadi akara asti, kathayati, ganayati. So if you look at all these... धातुस् कथयति वरयति गणयति शठयति श्वठयति रहयति एण्ड् सो आन् सो सिमिलर्लि इफ् यु हेव् अदर्स् आल्सो द लघुपथ आल्सो यु विल् नाट् गेट् गुण डस् नाट् बिकम् गोणयति इट् बिकम्स् गुणयति कुणयति एट्सेट्रा ओके बट् इफ् यु गो वेर् इट् इस् एन् इत्सम्या से वृष बिकम्स् वर्षयति त्रुट बिकम्स् त्रोटयति सो यत्र धातुः अदन्तः तर्हि अतोलोपः इत्यनेन अकारस्य लोपस्तु भवति किन्तु उपधायाः वृद्धिः न भवति गुणः अपि न भवति सो इन् द अदर् केस् इफ् इट् इस् नाट् अदन्त यदि अदन्तः धातुः न तर्हि अदुपधानाम् अत उपधायाः इति उपधा वृद्धिः. यत्र उपधायाम् अकारः अस्ति तड् इति तड् इ विकम्स् ताडि, लड् इ विकम्स् लाडि, श्वठ् इ विकम्स् श्वाठि. सर्वत्र उपधायाम् अकारः अस्ति चेत् वृद्धिः अत उपधायाः इति. अन्यत्र पुगन्तलघुपधस्य च इति गुणः. चित् इ चेति चेतयति, चुर् इ चोरि चोरयति, वृत् इ वर्ति. अत्रापि गुणः उरण्डपरः इति रपरः, सो वर्तयति एट्सेट्रा. ओके, सो इफ् इट् इस् अदन्त यु जस्ट् एड् इ, नथिङ्ग् एल्स् हेपन्स्. अदन्तात् निच् भवति, अकारस्य लोपः, स एव धातुः. यदि अदन्तः न तर्हि उपधायाः वृद्धिः अथवा गुणः. दट् इस् आल् फार् अदर् धातुस्, ये शेषाः धातवः, अन्यत् किमपि न भवति. सो देर् आर् अ फ्यू स्पेशल् केसस् इन् द चुरादिगण. सम् धातुस् इन् द चुरादिगण आर् डेसिग्नेटेड् एस् मित्, मितः केचन धातवः सन्ति. सो दे आर् दे डु नाट् हाव् मकार एस् इत् बट् स्टिल् दे आर् डेसिग्नेटेड् एस् मित्. तत्र किं प्रयोजनम्? मिताम् ह्रस्वः इति सूत्रमस्ति. मिताम् इति षष्ठी बहुवचनम्, ह्रस्वः इति प्रथम एकवचनम्. सो अङ्गस्य इत्यधिकारः. मिताम् ह्रस्वः दोषो णौ इत्यतः णौ इति अनुवर्तते. अङ्गाधिकारः असिद्धवदधिकारः. सो णौ इति अनुवृत्तिः. मिताम् अङ्गस्य उपधायाः इत्यपि अनुवृत्तिः अस्ति. ऊद् उपधाया गोहः इत्यतः उपधायाः इत्यपि अनुवर्तते. सो मिताम् अङ्गस्य उपधायाः ह्रस्वः स्यात् णौ परे. णौ परे उपधायाः ह्रस्वः भवति. यथा छि इति धातुः अस्ति, णिचि परे अचोयणिति इत्यनेन वृद्धिः. चै इ आयादेशे चायि. इदानीं मिताम् ह्रस्वः इत्यनेन ह्रस्वे चयि चययति इति भवति. ज्ञप् इति धातुः अस्ति. दिस् इस् नाट् द ज्ञा धातु. ज्ञा धातोः पुगागमे ज्ञापयति ज्ञापयतः ज्ञापयन्ति इति रूपं. ज्ञप इत्यपि धातुः अस्ति. तस्य णिचि अत उपधायाः इत्यनेन वृद्धिः. ज्ञापि. तत्र मिताम् ह्रस्वः इत्यनेन ह्रस्वे ज्ञपि. ज्ञापयति ज्ञापयतः ज्ञापयन्ति. सो इफ् यु लुक् एट् द धातुस्, सो देर् आर् नाट् मेनी आफ् दीस्, देर् आर् ओन्ली दीस् धातुस्. छि इत्यस्ति, वृद्धौ चायि, ह्रस्वे चययति. सो ज्ञप बिकम्स् ज्ञापयति, यमयति, चहयति, रहयति, बलयति. सो उपधायाः वृद्धौ कृतायां पुनः ह्रस्वः. सो मिताम् ह्रस्वः आपरेट्स् इन् अ लाट् आफ् केसेस्, नाट् जस्ट् हियर्. बहुषु स्थलेषु मित्वं भवति. यत्र यत्र मित्वं तत्र णौ परे ह्रस्वः विधीयते. सो दट् इस् आल्. वी हव् कवर्ड् द चुरादिगण. देर् आर् ओन्ली टू स्पेशल् धातुस्. So there's a question here, what does mit refer to? Mit actually refers to mit. Esha dhatushu makaraha itsamyakaha, saha mit iti uchyate. Kintu there are many cases where the ganapatha designates the dhatus as mit for the purpose of rasva. Nyapa mitcha iti uchyate. Bhadiganepi ketana dhatavaha santi. If you go to the bhadigana also, we didn't do it because we didn't find an application here. We didn't do the preranarthakanich. Nau pare eva hraswaha. Okay. So in the bhadigana there are dhatus which are mit. They are in the antargana. Ghatadayaha mitaha. So if you look at the ghatadi antargana, ghatadayaha mitaha. So they are designated as mit. So ghatayati, vyathayati, prathayati. Tesham nichi pare ह्रस्वः भवति. दे डु नाट् गेट् दीर्घ, दे गेट् ह्रस्व. सो मित् इस् अ कामन् कान्सेप्ट् इन् डिफरेण्ट् गणस्. yatra yatra mit bhavati tatra nichipare hrasvah. So in the churadigana swarthe yesham nich bhavati, so tatra ete eva dhatavah. There are only six or seven dhatus which get mitva. So because it is mit, there is hrasva. Okay. Mit is just a samnya in this case. It nothing else. Okay. So there are only there's a question. So none of the dhatus in the churadi have a mit. Yeah, they do not have makara as it, but the gana designates them as mit. As I said, within the gana, when they are in the gana patha, if you look at the original dhatu patha, the dhatu patha says that these dhatus are mit. So we have actually completed the churadi gana. There are only two more dhatus. Krita samshabdane iti dhatu hosti. Okay, so it is a dhatu where akara upadeshe ajananasika ityanena akara set samya krita ityasti tasmat nich pratyaha kriyate satyapapasha iti sutrena krita i danim upadhayascha iti sutramasti. I think we have not done this sutra. Okay. Yatra yatra dhatuhu rukarantaha. Okay. Wherever you have a rukaranta dhatu, ruta id dhatoho iti sutramasti. Rukarantasya dhatuhu it adeshaha bhavati. I iti rukarasya sthane ikaraha urandraparaha ityanena raparaha. Kr becomes kir, tr becomes tir. So in particular cases. Tatraiva upadhayascha ityasti. Rukaraha yatra upadhayam asti, tatrapi tatsya rukarasya i iti adeshaha. Upadhayascha iti sutrena, kruta ityatra rukarasya ikaraha adeshaha, urandraparaha ityanena raparaha. So it becomes kirtu i. Kruta ityatra upadhayascha ityanena ida ikada adeshe krate, kirtu i. Now, Rephavantasya yatra upadhayamcha. We have seen this in the Prakritika Karya. Gurd becomes gurd. Kurd becomes kurd. Yatra dhatav repaha vakarova upadhayamasti. Tatupadhayaha ikaha. So, an ik, which is in the upadha of a ropadha dhatu, gets dirgha. Upadhayamcha ityanena dirgha. Ataha kirp i. Ityatra kirti iti nijantaha dhatu. So this is a special prakriya only for this dhatu because there is a rukara in the upadha. Upadhayascha ityanena ikaradeshaha ir urandraparaha iti ir. Upadhayamcha ityanena dirghaha. There are two different sutras. Upadhayascha gives ikaradesha for a rukara in the upadha. Upadhayamcha gives a dirgha for a dhatu where upadha has repha and before it we have ik, ikara or ukara. So kirti iti dhatu, kirtayati. So nama kirtayati, kirtana, it's a very common dhatu. So tatra upadhayascha iti itvam visheshaha. Okay. That is one special dhatu. There is also a kripa avakalkane. This should be avakalkane. Sorry. So krupu akarasya itsamyayam lope krupu krupu I pugantalaghupadhasya cha iti gunaha karpi krupo rolaha. We have studied this bhadiganepi kalpate ityatra atrapi bhavati krupa dhatoho rephasya laktvam. So kalpi iti dhatuho kalpayati kalpayate iti rupam. So for these two, there is a special thing. For the rest, it is all akarantasya puk, anyesham ajantanam achoyaniti iti vriddhihi, adantanam atolopaha iti akaralopaha, anyesham adupadha adupadhanam ataupadhayaha iti upadha vriddhihi, idupadha udupadha rudupadhanam पुगन्तलभूपधस्य च इत्यनेन गुणः मिताम् ह्रस्वः. दट्स् आल्. सो इदानीं वाट् इस् द प्रक्रिया, निजन्तानां धातूनां सार्वधातुकलकारेषु रूपाणि कथं निष्पाद्यन्ते. आदौ मूलधातुः, द यूजुवल्, वि टेक् द धातु फ्रम् द धातुपाठ. सानुबन्धः, सार्थः धातुः स्वीक्रियते. इत्संज्ञा लोपः. प्राकृतिककार्याणि अत्रापि भवन्त्येव. इदितोनुम् धातोः, यदि धातुः इदित् तर्हि नुमागमः धात्वादेश्यः सः. यदि धातुः षकारादिः तर्हि षकारस्य स्थाने सकारः, नो नः. धातुः यदि णकारादिः तर्हि नकारस्य स्थाने नकारः भवति. निच् योज्यते. सो देन् यु आड् निच् टु द धातु. सत्यापपाशरूप वीणातूलश्लोक सेनालोमत्व च वर्मवर्णचूर्णचुरादिभ्यो निच्. प्लीज़ एक्स्क्यूज़ मी फॉर जस्ट वन मोमेंट, आई विल बी बैक. ततः णिच् प्रत्ययः. णिचिपरे कार्याणि, सो वृद्धिः अथवा गुणः. अजन्तानाम् अचोयणिति इति वृद्धिः, अदुपधानाम् अत उपधायाः इति वृद्धिः, पुगन्तलघूपधस्य गुणः. ततः आकारान्तस्य धातोः पुक्, अदन्तस्य धातोः अतोलोपः इति अल्लोपः, मिताम् ह्रस्वः, ऋकारः यत्र उपधायामस्ति तत्र उपधायाश्च इत्यनेन इत्त्वम्. सो दीस् आर् द कार्यस् विच् हेपन् वेन् फालोड् बै निच्. सो निजन्तः धातुः सिद्धः, ततः लकारः. सो वी हाव् द यूजुवल् वर्तमाने लट्, अनद्यतने लङ्, लोट् विधिनिमन्त्रणामन्त्रणाधीष्ट सम्प्रश्नप्रार्थनेषु लिङ्, लोट् च. द यूजुवल् लकारास् अडाटौ लङ् लकारे लुङ् लङ् लृङ्ष्वडुदात्तः इति अडागमः धातोः. यदि अजादिः तर्हि आडजादीनाम् इति आडागमः. सो दोस् आर् आल् द यूजुवल् वन्स्, नथिङ्ग् स्पेशल्. विकरणः शप्, सर्वेभ्यः णिजन्तेभ्यः धातुभ्यः कर्तरि शप् इत्यनेन शप् विकरणः भवति. सो वि आड् शप् टु णिच्. सो शपि कृते अङ्गकार्यं गुणः. रिमेम्बर् द धातु हियर् इस् आल्वेज् इकारान्त. णिचि कृते सर्वत्र धातुः इकारान्तः. लैक् यु डु जी शप् जे शप् जय. सिमिलर्लि चोरि अ चोरे अ चोरय. So this is why we have this aya. It is not nich. Nich does not directly have that aya. Nich bhavati. So nichaha ikaraha shapaha akaraha. Right. So nichaha ikarasya gune ekaraha ayadeshe aya. This is why we hear aya in all dhatus of the churadigat. So it is the combination of nich and shap. So shapipare gunaha ekaraha tasya ayadeshaha. So you have the dhatu. Choraya, kathaya, ganaya, jnapaya, kirtaya, whatever. All the things you have the aya. So tataha kim bhavati, you have the adanta anga. So you again have shap, adantam angam. Adante bhyaha ange bhyaha pratyayahu tu jnayanta eva. The same pratyayas which we saw in the bhadigana. So there is no difference, absolutely no difference. It is the same pratyaya. Derivation of the pratyayas is also the same. Sarvatra pratyaya nirmanam samanam. So tebhyaha yojanam. You have an adanta anga, you have a pratyaya. Katham yojanam, we already know. Ato dirgho yanyi. Nyayadav pratyaye dirghaha. Akara, hraswakara dihi athava yekara dischet ato gune iti pararupam. Ami, ami purvaha iti purvarupam. Akare, akasavarane dirghaha iti savarana dirghaha. Aikare, vruddhirechi iti vruddhihi. Anyatra adgunaha. Choraya, chorayati, chorayataha, chorayanti. Chorayasi, chorayataha, chorayatha. Chorayami, chorayavaha, chorayamaha. Chorayate, chorayete, chorayante. Chorayase, chorayethe, chorayadhve. Choraye, chorayavahe, chorayamahe. So all forms are same. There is, I mean, once you have the nijanta dhatu, you just proceed like the dhatus of the bhadigana. There is nothing else. Okay. So let's just see a sample prakriya fully. Churaspeye iti dhatu hu. Upadeshe ajananasika iti tasya lopaha. Chur. Nich. Satyapapasha iti sutrena. Chutu iti nakarasya. Halantyam iti chakarasya. Itsamya tasya lopaha. Chur i. Puganta laghupadhasya cha ityanena kune. Chori iti dhatu hu. Anadyatane lang iti lang lakaraha. Chori l. Lung lang rung shvadudataha achori l achori ti tip tas ji iti langaha tip kartarishap achori a ti angakaryam shapi pare angakaryam gunaha sarvadhatuka ardhadhatuka yoho iti gunaha achore a ti itascha iti pratyaye ikarasya lopaha achore a Sandhikaryam Achorayat. Over. So for any lakara, any form, we have completed the nijantas. Okay. So if you look at this, so akaranta, you get puk, artihri bliri, knuich mayatam pugunau iti, puk, gnyapu I, gnyapi. Nyapayati, nyapayataha, nyapayanti, ityadi. So, chi, chayane, so ikarantaha, so you get ruddhi, chai, e, and then ayadesha, chai, so it is mit, mitam hraswaha, ityanena hraswe, chayayati. Chyu, chyo, chyau, vriddhau, chyau, chyavayati. Bhu, so as you can see, avakalkanarthe, nich, bhavati. Anyeshwartheshu na bhavati. Ataha nich yadi bhavati tarhi bhavayati. No chet bhavati. So ghr. Rikarantaha vriddhau ghar. Gharayati. Parayati. So adupadhaha. Ataupadhaya iti vriddhihi. Ladayati, jalayati, natayati, shrathayati. Sarve ubhayapadinaha. So it is both. I am just mentioning. So yatra mit iti nirdeshyate tatra hraswaha nyapayati amayati chahayati rahayati balayati. So idupadhaschet upadha gunaha pesayati snehayati smetayati shleshayati. So this is not idupadha actually, it is pichayati because ikara is not in the upadha. I'll change this. So it is a shesha. So, velayati, velayati, telayati, tejayati, and so on. Udupadhaha chet, chorayati, chodayati, tolayati, dolayati, polayati, pugantalaghupadhasya cha, iti gunaha. So, rudupadhaha, pritha, parthayati. So, again you have the, you know,
So then, shesha, for the rest, if it is marked shesha, there is nothing special. Samba, shamba, so dhatvadesha saha, it becomes samba, sambayati, shambayati, luntayati. So you have idit, idito num dhatoho, iti numagamaha, chintayati. As I said, if it is idit, it results in nijvikalpa. Chintayati, chintati. Sphundayati, sphundati. Etc. Yantrayati, kundrayati, and so on. So for the rest, there is nothing special. So if you have udit, again you have nijvikalpa. So it becomes devayati or devati. Diva iti dhatuhu. Yadi nich bhavati tarhi devayati. Yadi nich na bhavati tarhi devati. Okay. Jasayati, jasati, and so on. So the ganas, you know, it results in optional nich. Okay. Okay. So prashnaha. So we have completed churadigana. There is nothing left. So you just have to go home and practice. Churadigana is very easy. Once you have the pratyayas and deriving the pratyayas which we have already studied. So adding nich is pretty easy because nich is not kit or nith. There is no guna, guna, nishedha complication. So it is fine. So questions. Is kripa in the first or the tenth gana? It is in both ganas. Remember there are many dhatus which are in multiple ganas. Okay, it is for rupa, for artha and so on. Vidadhatu is in four ganas. So there are many dhatus which occur in multiple ganas. It is not a rare occurrence. So Himamshu Mahodaya, Prashna Hastya.
And then Saru Dhatu ke, Ardu Dhatu ke apply and make it Chure? Why does Pugant Lagupadasya apply? Why doesn't Saru Dhatu ke, Ardu Dhatu ke, that thing?
Where is the Saru Dhatu ke, Ardu? Which is the Pratyaya? If you are taking Nich as the Pratyaya, the Anga is Chur. The Anga is Chur. Which is not Iganta.
Okay.
So it is Laghupadha. If you are taking Chori, we do Sarvadhatuka later, but it is depending on the Shap. It is depending on Shap. Chori is the Anga. So that gets Guna by Sarvadhatuka.
Okay, I get it. I missed that Churi. Okay, good. Thank you very much.
Yes, thank you. Any other questions? So, in Nijantas, there are basically only three parts. One is knowing if the nich is compulsory or optional. So, that you can do by the ganas, the antar ganas. Say, asvadiya, asvada sakarmakat. So, if it is sakarmaka, there is nich. If it is not, there is. So, it's a nich vikalpa. So, to know where is nich, nitya, where it is anitya is one. So, where is it ubhayapadi, where is it atmanepadi is another. So if you have the akusmiya gana, it is atmanepadi, agarviya atmanepadi, the rest are all ubhayapadins. So the third part is knowing how to add nich. What is the karya which happens when nich is added? Okay. So that is also not much as we saw. There is only vriddhi or guna. Achoyaniti or ataupadhayaha gives vriddhi. Pugantalabhupadhasya gives guna. If it is akaranta, there is puk. If it is Adanta, there is Allopa. If it is Mit, there is Hraswa. So for Krut, there is Upadhyamshcha Ir. Okay. So, there's one question. The current version of the Dhatu Patha, certainly, I'll upload it. The updated version. So currently I have kept it in different sheets. Please remember the Vadi is in a different sheet, Churadi is in a different sheet. So at the end, once we finish all the ganas, I'll make it into one. I just wanted it separately so as to not to confuse things when I am filtering and all that. But I will share this sheet this time. there is one more question. Does atolopaha supersede achoiniti because it is parakarya? No, it is not para. I think atolopaha is purva. But it is definitely atolopaha which happens, not achoiniti. I'll look this up and let you know. So can I give us the link to the sutra patha? Which sutra patha? This one? It is already there in the this one. I have not made any changes in the sutra patha. It is there in the first unit of the class, which is soft copies of useful documents for the class. So the sutra patha is already there. Only the dhatu patha which I have changed, I will give you the link to that. I mean, I'll load it in the same place it will be loaded. Okay. Any other questions? So I will give an exercise. I don't have it yet ready. So it will just be different lakaras of the churadi gana. You just have to derive, like the ones we used to have sentences and derive those forms. That's all, nothing special. Enakshara samamnayamati gamya maheshwara krutsamyakaranam proktam tasmai paninaye namaha. Vakyakaram varavichim bhashyakaram patanjalim paninim sutrakaram cha pranatosmi munitrayam.